सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति. इत्युक्ते अत्र कानिचन लक्षणानि उक्तानि. लक्षणानि कानि इत्युक्ते विद्या, तपः, दानं, ज्ञानं, शीलं, गुणः, धर्मः. ये जनाः येषां जनानाम् एतानि लक्षणानि न सन्ति ते इहलोके भारभूताः. इत्युक्ते ते जनाः मनुष्यरूपेण चरन्तः मृगाः एव. एतैः लक्षणैः विना जनाः, केचन जनाः मृगाः एव लोके चरन्तः सन्ति. अत्र तदर्थं किं करणीयम् इत्युक्ते विद्या सम्पादनीयम् अपि च धर्मः आचरणीयः. अस्मिन् श्लोके प्रथमं लक्षणम् उक्तमस्ति विद्या. इत्युक्ते विद्या विद्यार्जनाय वयं सर्वे अधुना प्रयत्नं कुर्मः. परन्तु विद्यार्जनार्थं भाषायाः अवगमनम् आवश्यकम्. अतः संस्कृतभाषायाः अवगमनार्थं वयं किञ्चित् प्रयत्नं कुर्मः अधुना. तदर्थं भवन्तः सर्वे प्रयत्नशीलाः इति अहं चिन्तयामि. अनन्तरं गते सप्ताहे वयं द्वितीयविभक्तेः विषये किञ्चित् ज्ञातवन्तः. गृहपाठमपि अस्ति अत्र. गृहपाठः मम विद्यालयः इत्यस्मिन् विषये पञ्चवाक्यानि श्रावयन्तु इति एव अत्र गृहपाठः. अधुना शोभा भगिनी वदतु, भवत्याः पार्श्वे वाक्यानि सन्ति चेत्.
आम् महोदय, मम विद्यालयं अन्तर्जालस्य माध्यमेन भवति. अहं मम कक्ष्यायां संस्कृतं पठामि. सर्वे अध्यापकाः च बहु उत्तमरूपेण पाठं पाठयन्ति. भवन्तः विविधरूपस्य करपत्राणि, कथाः च उपयुज्यन्ति.
अस्माकं भगिनी अस्मिन् वाक्ये बहुवचने वदतु. अत्र करपत्राणि बहुवचनम् अस्ति, तदर्थं तत्र षष्टिविभक्तेः बहुवचनं योजनीयं. पुनः वाक्यं वदतु.
हा, भवन्तः विविध रूपेण, विविध नाट् रूपस्य न रूपेण अस्ति वा भगिनी? विविधरूपेण.
अत्र विविधरूपेण इति तृतीयाविभक्तेः तृतीयाविभक्तिः, परन्तु विविधरूपाणां करपत्राणाम् उपयोगमपि कुर्वन्ति. इत्यपि समीचीनं, परन्तु रूपेण इति उत्तमं. किमर्थम् पृष्टवती इत्युक्ते प्रथमतया भवती रूपस्य इति उक्तवती, परन्तु तत्र करपत्राणि अस्ति, तदर्थं षष्टि बहुवचनं योजनीयम्.
भवन्तः विविधरूपेण करपत्राणि, कथाः च उपयुज्यन्ति. अस्माकं अध्यापिका अस्माकं नीतिकथाः अपि श्लोकाः श्रावयति इति अस्माकं ते विषये ज्ञानं वर्धयति.
अत्र अस्मान् बोधयति.
अस्माकम् इस् अवर्स्. ओके, टु अस् बोधयति.
अत्र अस्मान् बोधयति इति, अस्मान् इति द्वितीयविभक्त्यन्तरूपं, परन्तु अस्माकं षष्टिविभक्तेः रूपं, परन्तु अध्यापिका अस्मान् बोधयति.
अस्माकम् अध्यापिका अस्मान् नीतिकथाः अपि श्लोकाः श्रावयति, अस्मान् श्रावयति इति अस्मान् ते विषये ज्ञानं वर्धयति.
इत्युक्ते ते विषये इत्युक्ते अत्र तेषु तस्मिन् विषये
तेषु विषये हा तेषु विषये
तत्र तेषु विषयेषु ज्ञानं
षष्टिविभक्ति
त्रत्रेषु इति सप्तमी
किं भगिनि तत्रेषु
तेषु इति पदं सप्तमी विभक्तिः
आं भगिनि
तेषु 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 मम ज्ञानं वर्धयति
हा सप्तमी आं भगिनि
अनन्तरं
तावदेव भगिनि पञ्चवाक्यानि
गीताञ्जलि भगिनि भवती अपि श्रावयतु
मम विद्यालयस्य नाम बालभारती अस्ति प्रथमकक्षातः द्वादशपर्यन्तं विद्यार्थिनः पठितुं गच्छन्ति तथा सकल सार्धद्वासहस्रबालकाः बालिकाः च तत्र प्रतिदिनं पठन्ति आचार्याणां प्रधानाचार्य सङ्गीताचार्य च श्रेष्ठे स्तः
पुनः एकवारं श्रावयतु
आचार्याणां प्रधानाचार्य सङ्गीताचार्य च श्रेष्ठे स्तः
श्रेष्ठे स्तः उत्तमम् इत्युक्ते भवती द्विवचने वक्तुमिच्छति
आम् आं भगिनि द्विवचनश्रेष्ठे एकप्रश्न अस्ति प्रधानाचार्य सङ्गीताचार्य उभे महिला संज्ञा रूपेण प्रधानाचार्य अस्ति फोर् महिला पुरुषमहिला उभे
अस्ति चेत् तथा स्तः चेत् केवलं पुंलिङ्गे वदतु अत्र पूर्वमेव वयं चर्चितवन्तः तस्मिन् विषये यदि पुरुषाः अपि च महिलाः मिश्रिताः सन्ति चेत् डिफाल्ट् पुंलिङ्गे भवति
वाक्यं
तदा स्त्रीलिङ्गे वदामः भवती किं वक्तुमिच्छति तत्र वाक्यं किं पुनः वदतु
ज्ञानाचार्यः स्त्रीलिङ्गसंज्ञा किं शब्दम्
अत्र आचार्यः पुंलिङ्गे आचार्या अथवा अध्यापिका
आचार्या प्रधानाचार्या सङ्गीताचार्या च श्रेष्ठा
श्रेष्ठे स्तः उत्तमम्
विद्यालयस्य पुरतः महान् द्वार अस्ति यत्र सर्वे जनाः सोमवासरतः शनिवारपर्यन्तं प्रवेशन्ति अवकाशन्ति च
तत्र वासरतः तदनन्तरं किम् अहं न सम्यक् न श्रुतवती
विद्यालयस्य पुरतः महान् द्वार अस्ति यत्र सर्वे जनाः सोमवासरतः शनिवासपर्यन्तं प्रवेशन्ति अवकाशन्ति च
अवकाशन्ति च इत्युक्ते तत्र सम्यक् न श्रूयते भगिनि अत्र अवकाशन्ति इत्युक्ते भवती किं वक्तुमिच्छति
प्रवेशन्ति एक्सिट् लीव्
अवकाशन्ति इत्युक्ते प्रविशन्ति, तत्र विश् धातुः प्रागुपसर्गपूर्वकः विश् धातुः, तत्र वाक्यमस्ति प्रविशन्ति, तदेव सम्यक् रूपं लट् रूपम्.
प्रविशन्ति लट् रूपं अवकाश अविकाशन् अविकाशन्
अत्र भवती बहिः गच्छन्ति इति वक्तुमिच्छति वा?
बहिः गच्छति.
अनन्तरं
विद्यालयस्य वामतः भित्ति अस्ति. भित्ति
उत्तमं. भित्तिः इत्युक्ते किं भवती एव वदतु.
दिवार् वाल्
वाल् उत्तमम्. अनन्तरं
विद्यालयस्य वामतः भित्तिः अस्ति, तस्याः पृष्ठतः अनेकाः वृक्षाः सन्ति.
उत्तमम्.
तावदेव.
अस्तु. अनन्तरं शोभा भगिनी, भवती अपि अधुना वंशसुधा भगिनी आगतवती इति भाति. वंशसुधा भगिनी, भवती श्रावयतु वाक्यानि.
किञ्चित् विलम्बेन आगच्छामि, क्षम्यताम्.
अस्तु अस्तु, श्रावयतु वाक्यानि, श्रावयतु.
आम् आम् भगिनि, अहं प्रथमपुरुषः इति वाक्यानि इदानीं वाक्यानि अहं वदामि. पुरतः महोदय किञ्चित्
अत्र मम विद्यालयः इत्यस्मिन् विषये अपि लिखितवती.
किञ्चित् किञ्चित् लिखितवती, परन्तु अहं पूर्णतया न लिखितवती, परन्तु पुरतः एव सर्वं लिखितवती. अहं पठामि भगिनि, किञ्चित् सम्यक् नास्ति चेत् सम्यक् करोतु. एषः मम विद्यालयः अस्ति. एतस्य भवनं सुन्दरम् अस्ति. अहं सरलवाक्यानि एव रचितवती.
अस्तु अस्तु.
अत्र बहवः छात्राः सन्ति. एतस्य क्रीडाङ्गणः विशालः अस्ति. छात्राः क्रीडाङ्गणे क्रीडन्ति. विद्यार्थी दशा जीवने उत्तमा दशा अस्ति.
विद्यार्थिजीवने उत्तमदशा अस्ति.
विद्यार्थिजीवने आम् आम् जीवने उत्तमा दशा अस्ति.
अत्र विद्यार्थी इत्युक्ते अत्र समासं न कुर्मः चेत् तत्र विभक्तेः आवश्यकता अस्ति भगिनि. तत्र यदि अत्र यदि वयं समासं कुर्मः चेत् तत्र विभक्तिः लोपः जातः, लुप्तः जातः. परन्तु समासं न कुर्मः वदामश्चेत् विद्यार्थिनः जीवने, किमर्थम् इत्युक्ते तत्र षष्टिविभक्तेः आवश्यकता अस्ति. विद्यार्थी इति पदस्य विषये किञ्चित् वदतु. अत्र विभक्तिः कालिङ्गं किं?
विद्यार्थी इति स्त्रीलिङ्गं भगिनि.
पुनः पुनः विद्यार्थी लिङ्गं किं?
विद्यार्थी किं लिङ्गं?
शोभा भगिनी वदतु.
पुंलिङ्गम् अस्ति वा भगिनि?
पुंलिङ्गम् अहं चिन्तयामि.
पुंलिङ्गम् अपि च अन्तं किम् इत्युक्ते भवन्तः जानन्ति चेत् वदन्तु, नो चेत्
ईकारः विद्यार्थिना नकारः वा पुंलिङ्गशब्दः?
उत्तमं भगिनि, भवती ऊहं कृतवती. परन्तु अत्र
विद्यार्थिनः
अत्र विद्यार्थी इति पदं हलन्तपदम् इत्युक्ते हल् अन्ते अस्ति. इत्युक्ते वयं जानीमः एव अजन्तपदानि अपि च हलन्तपदानि. विद्यार्थी इति पदं पुंलिङ्गपदम् अपि च हलन्तपदं नकारान्तपदं, तस्य प्रातिपदिकरूपम् अस्ति विद्यार्थिन्. पुंलिङ्गे किं भवति? विद्यार्थी दीर्घैकारान्तं भवति, परन्तु तत्तु दीर्घैकारान्तपदं नास्ति, यथा नदी शब्दवत् नास्ति. तत्तु नकारान्तपदं. परन्तु स्त्रीलिङ्गे विद्यार्थिनी इति वदामः, परन्तु तत्तु विद्यार्थिनी इति पदं नदी शब्दवत्. अतः अधुना भवत्याः वाक्ये तत्र विद्यार्थिजीवने इति उक्तवती, तत्र विद्यार्थिनः
षष्टिविभक्ति
जीवने किं भवति?
अहं लिखित विद्यार्थिदशा जीवने उत्तमा दशा अस्ति, अहं तदेव लिखितवती भगिनि.
अस्तु, विद्यार्थिदशा जीवने उत्तम
दशा अस्ति.
उत्तमम्.
इदा विद्यार्थी विद्यार्थिनः दशा लिखामि भगिनि.
अहं चिन्तितवती विद्यार्थिनः जीवने इति उक्तवती चेत् तत्र अहं किं वक्तुम् इच्छामि चेत् विद्यार्थिजीवने तत्र समासः भवति, समासं न कुर्मः चेत् विद्यार्थिनः जीवने इति भवति. अनन्तरम्
अनन्तरम् अहं षड् वाक्यानि लिखितवती पुरतः. अधुना अहं सङ्गणकस्य पुरतः उपविशामि. पृष्ठतः देवालयस्य पृष्ठतः आपणाः सन्ति. वामतः गृहस्य वामतः नदी प्रवाहति.
प्रवहति
प्रवहति प्रवहति
अत्र अत्र प्रा उपसर्गपूर्वकः वः धातुः.
वः धातु आम् आम् प्रवहति. दक्षिणतः पाठशालायाः दक्षिणतः वृक्षाः सन्ति. अधः वृक्षस्य अधः पान्ताः विश्रमन्ति.
पान्ताः विश्रमन्ति.
पान्ताः विश्रमन्ति.
अत्र पान्ताः इत्युक्ते नूतनं पदमस्ति, अन्येषां कृते वदतु तस्य अर्थः कः.
पान्तः इत्युक्ते ट्रावेलर्.
उत्तमम्. अनन्तरं
पुल्लिङ्गपदम् उपरि वृक्षस्य उपरि वानराः सन्ति. बहिः गृहस्य बहिः बालाः क्रीडन्ति.
अत्र अत्र एव पश्यतु, अहम् एकं करपत्रं प्रेषितवती. अत्र समीकरोतु, भवती एव समीकरोतु.
आं भगिनि, अहं बहिः इति पुल्लिङ्गे अस्ति.
न न भगिनि भगिनि, अत्र पश्यतु, अत्र पश्यन्तु. बहिः इति पदं, बहिः इति पदस्य अन्ते विसर्गः अस्ति इति कृत्वा तत्तु पुंलिङ्गपदं नास्ति, तत्तु अव्ययम्. अत्र बहिः, अत्र बहिः अन्तः एतानि पदानि अव्ययानि, न तु पुंलिङ्गपदानि. साधारणतया वयं किं चिन्तयामः, विसर्गः अस्ति चेत् पुंलिङ्गपदम् इति चिन्तयामः, परन्तु कानिचन पदानि सन्ति अव्ययानि. यदि पदम् अव्ययम् अस्ति चेत् तत्र लिङ्गवचनविभक्ति परिवर्तनं न भवति. इत्युक्ते बहिः इति पदं सर्वदा बहिः इति एव भवति, तस्य परिवर्तनं न कदापि भवति. परन्तु तत्र एकः नियमः अस्ति, साधारणतया बहिः इति पदं योजयित्वा वाक्यं रचयामश्चेत् बहिः इति पदात् पूर्वं पञ्चमीविभक्तेः उपयोगं कुर्मः.
गृहात् बहिः,
तदेव समीचीनं.
पूर्वस्मिन् कक्षायाम् अहं बहिः इति नास्ति भगिनि.
अत्र पश्यतु भगिनि, अहं परह्यः, अहं परह्यः किञ्चित् वदामि. अत्र परह्यः करपत्रत्रयं प्रेषितवती, तस्मिन् एकं करपत्रमस्ति पञ्चमीविभक्तेः विषये अस्ति. यदि बहिः इति पदं योजयित्वा वदामश्चेत् गृहात् बहिः, विद्यालयात् बहिः, नो चेत् पाठशालायाः बहिः इति भवति. इत्युक्ते पञ्चमीविभक्तेः रूपमेव तत्र उपयोगं कुर्मः. किमर्थं चेत् तत्र कारकविभक्तयः अपि च उपपदविभक्तयः नाम्ना अत्र द्विप्रकारकाः सन्ति, परन्तु अत्र बहिः इति पदम् उपपदं. बहिः पदम् अस्ति चेत् तत्र पञ्चमी विभक्तिः एव करणीयः करणीया तत्र नियमः अस्ति अधुना वदतु भगिनि
उपपदम् इत्युक्ते किं भगिनि
उपपदविभक्तयः इति नाम्ना यदि तत् तत्पदम् अस्ति चेत् तस्मिन् वाक्ये विभक्तेः प्रामुख्यता भवति तत्र बहिः इति पदमस्ति चेत् पञ्चमी विभक्तिः अपि च विना इति पदमस्ति चेत् द्वितीया विभक्तिः वा तृतीया वा अथवा पञ्चमी वा तथा एव हल् अलम् अलम् इति पदं योजनेन तृतीया विभक्तिः एव भवति तथा अपि च तथा विभक्तयः सन्ति अत्र बहिः इति पदात् पूर्वं सर्वदा पञ्चमी विभक्तेः उपयोगमेव कुर्मः तस्मिन् विषये अहम् एकं स्पष्टीकरणार्थम् एकं करपत्रं प्रेषितवती अधुना भवत्याः पार्श्वे अस्ति चेत् स्थापयतु तदपि कुर्मः अत्र त्रीणि करपत्राणि प्रेषितवती परह्यः शोभा भगिनी भवत्याः पार्श्वे अस्ति वा
अस्ति भगिनि
तत्र किञ्चित् पठतु तत्र किं दत्तमस्ति करपत्रे
हा किं करपत्रे भगिनि करपत्रं भगिनि
अत्र पञ्चमी विभक्तेः
पञ्चमी विभक्ति विद्यालयात् अपि विद्यालयतः समानपदं सन्ति समानपदानि सन्ति विद्यालयात् एतयोः विद्यालयात् विद्यालयतः एतयोः अर्थभेदः नास्ति
अर्थभेदः नास्ति इत्युक्ते विद्यालयतः अथवा विद्यालयात् अत्र अर्थः समानः इत्युक्ते यदि वयं विद्यालयतः इति वदामश्चेत् अथवा विद्यालयात् वदामश्चेदपि अर्थः समानः भवति तत्र तः इति पदं योजनेन तः इति प्रत्ययः परन्तु विद्यालयात् इति पदं पञ्चमीविभक्तौ अस्ति अत्र एकं सौलभ्यमस्ति सौलभ्यं किमित्युक्ते पुंलिङ्गे वदामश्चेत् विद्यालयतः इति वदामः स्त्रीलिङ्गे वदामश्चेत् मालातः नपुंसकलिङ्गे पुस्तकतः इति भवति इत्युक्ते तत्र सौलभ्यमस्ति इत्युक्ते पञ्चमीविभक्तेः रूपं किम् इति चिन्तनस्य आवश्यकता एव अस्ति केवलं तः योजनेन सम्यक् भवति वाक्यं तदेव अत्र तसिल् प्रत्ययस्य प्राधान्यता अस्ति वंशी भगिनी भवती अपि भवत्याः पार्श्वे करपत्रम् अस्ति चेत्
पश्यतु लघु इति शब्दस्य करपत्रम् अस्ति भगिनि परन्तु इदानीं मम पार्श्वे नास्ति किमर्थम् अहं लघुशब्दस्य रूपाणि भवती प्रेषितवती अहं तत्तु अस्ति तत्तु अस्ति
इत्युक्ते अहं बुधवासरे वा
आमामां किञ्चित्
अत्र विषयः कः इत्युक्ते बहिः इत्यस्मात् पूर्वं सर्वदा पञ्चमी विभक्तेः उपयोगमेव कुर्मः अधुना श्रावयतु वाक्यानि
आम् आं भगिनि गृहात् बहिः बालाः क्रीडन्ति सम्यक् भगिनि
सम्यक्
अथवा मन्दिरात् बहिः बाला क्रीडन्ति किमपि पुल्लिङ्ग् अस्ति
अत्र मन्दिरम् इति नपुंसकलिङ्गपदं मन्दिरात् बहिः
मन्दिरात् बहिः सर्वे पुल्लिङ्ग नपुंसकलिङ्गसमानमस्ति मन्दिरात् बहिः बाला क्रीडन्ति तदेव भगिनी अहं लिखितवती
उत्तमम् अधुना तस्मै यदि भवती करपत्रं पश्यति चेत् तत्र भवती अपि अवगन्तुं शक्नोति तत्र केवलं तः इति योजनेन वाक्यं भवति वाक्यं सम्यक् भवति पञ्चमीविभक्तेः तस्य पञ्चमीविभक्तौ तस्य रूपं किमिति वदति
मम पार्श्वे करपत्रं नास्ति भगिनि सर्वे अपि अहं पश्यामि
चिन्ता मास्तु, अहं पुनः एकवारं प्रेषयामि.
भगिनि एकः एकः संशयः अस्ति, लघुशब्देन द्विवारं स्त्रीलिङ्गे अस्ति भगिनि, किमर्थं लघुशब्दस्य द्विवारम् अस्ति? लघु अहम् एकवारं पश्यामि, यदि शोभा भगिनी वक्तुम् इच्छति चेत् अहं
भवती यद् उक्तवती तत्तु सम्यक् एव, परन्तु अहं तु लघ्वी लघ्वी इति रूपमेव जानामि, लघ्वी लघ्व्यः तदेव जानामि, तदेव भवती अपि पठतु.
ओ ओके,
अत्र अहमपि तस्मिन् करपत्रे रूपद्वयं दृष्टवती, परन्तु तत्र अहं लघ्वी लघ्व्यः तद् रूपमेव अहं पठितवती, तदर्थं भवती अपि तदेव पठतु.
फेमिनैन् यूनिटं डिक्लेन्शन् नास्ति, तथा अहं पठनीयं नास्ति इदानीमेव.
अधुना किं कुर्मः इत्युक्ते, शोभा भगिनी भवत्याः पार्श्वे वाक्यानि सन्ति वा? इतोपि
सन्ति पृष्ठतः. प्रथमवाक्यं, मम गृहस्य सर्वतः वृक्षाणि सस्यानि पुष्पाणि च सन्ति.
अत्र सर्वतः न वदामः,
परितः. आं भगिनि, भवती उक्तवती परितः.
वदतु परितः इत्युक्ते किम्?
आल् अराउण्ड्.
उत्तमं,
दट्स् वाट् ऐ वाज़ एमिंग् फार्. मम गृहस्य परितः वृक्षाणि सस्यानि पुष्पाणि च सन्ति.
वृक्षाः, तत्र वृक्षाः पुंलिङ्गपदं, पुष्पाणि उत्तमं, सस्यानि उत्तमं,
वृक्षाः सस्यं सस्यानि पुष्पाणि च सन्ति. द्वितीयवाक्यं, गृहस्य पृष्ठतः यः वृक्षः अस्ति सः वृक्षस्य उपरि विविधपक्षिण कलरवं कुर्वन्ति.
उत्तमं, तत्र
सम्यक् अस्ति वा भगिनि?
इत्युक्ते अत्र तत्र तस्मिन् वाक्ये मम गृहस्य पुरतः वा पृष्ठतः वा?
पृष्ठतः
यः वृक्षः अस्ति तस्य उपरि
तस्य सः वृक्षस्य आवश्यकं नास्ति, तस्य उपरि
पक्षिणः सन्ति.
तस्य उपरि पक्ष उपरि पक्षयः पक्षिणा.
अत्र पश्यतु भगिनि, अत्र पश्यतु, पक्षीपदं पक्षी इति पदमपि यथा विद्यार्थी इव तदपि नकारान्त हलन्तपदम्, अतः पक्षी पक्षी पक्षिणौ पक्षिणः
पक्षिणः.
प्रथमाविभक्ति बहुवचनं, यथा अत्रापि योगी इति पदमस्ति, योगी पदमपि अपि तथा एव, योगी नकारान्तपदं, योगी योगिनौ योगिनः
योगिनः.
परन्तु परन्तु तत्र यदि भवन्तः हलन्तपदानि ज्ञातुमिच्छन्ति चेत् करपत्राणि सन्ति मम पार्श्वे, अहं प्रेषयामि. हलन्तपदानां पठनसमये वयं एतत् विषयं पठामः, परन्तु पदं पक्षी इति पदं नकारान्तपदम्
अस्तु.
तदर्थमेव तत्र बहुवचनरूपं पक्षिणः
पक्षिणः.
परन्तु अन्यः विषयः अपि अस्ति, तत् पदं पक्षिणः इति पदं द्विवारं वा अथवा त्रिवारं वा आगच्छति तस्मिन् शब्दे.
पुनरेकवारं वदतु भगिनि, द्विवारं च.
तत्र नकारान्तपदं यदि नकारान्तशब्दं पठामश्चेत् तत्र पक्षिणः अथवा योगिनः अथवा विद्यार्थिनः इति रूपं, तत् रूपं द्विवारं वा अथवा त्रिवारं वा आगच्छति तस्मिन् शब्दे. इत्युक्ते वाट् ऐ मीन् टु से इस् लैक् दट् वर्ड् पक्षिणः, इट् विल् कम् इन् 2-3 प्लेसस् इन् द सेम् शब्द
इन् द सेण्टेन्स्.
not in the no. sentence. Actually, when we are reading the shabdas, Ramah, Ramau, Ramah, Ramam, Ramau,
Ramam. Oh, okay, okay. Ha, ha.
Tatha vadama, tatha pataniyam bhagini, tatha pataniyam. Kimartham chet, tatha patamas chet, rupani, samyak kanthasthi kurmah chet, bahu laapha bhavati. Tada eva vayam uttamani vakyani rachayitum shaknamah. Adhamataya rupa.
अहं पठामि भगिनि किन्तु स्वल्पं स्वल्पमेव मस्तिष्के स्थापयति स्थापयामि
उत्तमम् 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 इत्युक्ते किमर्थम् अहं वदामि इत्युक्ते प्रथमम् अस्माकं कर्तव्यं किम् इत्युक्ते रूपं प्रथमं शब्दस्य रूपं ज्ञातव्यं तदनन्तरं तस्य उपयोगं कदा करणीयम् अथवा कुत्र तस्य उपयोगः भवति इति अपि ज्ञातव्यं तदर्थमेव व्याकरणम् इत्युक्ते रूपं ज्ञातव्यम् अपि च तस्य प्रयोगः कुत्र भवति कदा भवति कदा तस्य उपयोगः यदि पदं षष्ठीविभक्तौ अस्ति चेत् तस्य उपयोगं कथं करणीयं कुत्र तस्य उपयोगः भवति इत्यपि ज्ञातव्यम् We need to know the word and where it should be used in and how it should be used. Both are important.
Yes.
Yeah. Uttamam bhagini. Shravyatu.
Shravyatam bhagini. Ekah prashnah. Nakaran something Atman Rajan Shabda hasti dvayoh samana hasti bhagini.
उत्तमम् आत्मापदं पुंलिङ्गपदम् आत्मा वदतु भगिनि प्रथमाविभक्तिरूपाणि वदतु
आत्मा आत्मानौ आत्मानः
तावदेव
राजन् अपि समानं भगिनि
उत्तमं राजे अपि तथा एव राजा राजानौ राजानः किञ्चित् म्यूट् करोमि अत्र शोभा भगिनी भवती श्रावयतु मम पृष्ठतः मम गृहस्य पृष्ठतः पक्षिणः
पक्षिणः गृहस्य पृष्ठतः यः वृक्षः अस्ति तस्य उपरि विविधपक्षिणः कलरवं कुर्वन्ति
उत्तमम्
वृक्षस्य अधः शशाः इतस्ततः सञ्चरन्ति
उत्तमम्
क्यान्सस् राज्यस्य दक्षिणतः मिजोरी अपि वामतः कालराडो राज्याः सन्ति
उत्तमम्
शालायाः अथवा शालातः बहिः अन्तः च छात्राः सन्ति
उत्तमम्
तावदेव भगिनि
उत्तमं धन्यवादः इदानीं पर्यन्तं वयं गृहपाठविषये एव चिन्तनं कृतवन्तः अधुना वयम् अभ्यासपुस्तके किं दत्तमस्ति इति पश्यामः गीताञ्जलि भगिनी अत्र एकत्रिंशत्तमे पुटे इत्युक्ते 31 पेज् 31 अभ्यासपुस्तके किञ्चित् पठामः अत्र एकं चित्रमस्ति चित्रस्य अधोभागे कानिचन वाक्यानि सन्ति भवती वाक्यानि पठतु
आं भगिनि सः केशवः केशवस्य पुरतः शकटः अस्ति तस्य पृष्ठतः वसति मन्दिरम् अस्ति तस्य दक्षिणतः देवालयः अस्ति तस्य वामतः वृक्षः अस्ति देवालस्य उपरि कलशः अस्ति शकटस्य अधः शुनकः अस्ति
अत्र नूतनानि पदानि कानि नूतनानि पदानि अपि पठतु
शुनकः
अत्र अधोभागे अत्र षट् पदानि सन्ति पदानि पठ
पुरतः वामतः उपरि पृष्ठतः दक्षिणतः अधः
उत्तमम् इदानीं पर्यन्तं भवती पठितवती परन्तु अधुना वयं किं कुर्मः इत्युक्ते खण्डशः पश्यामः अस्मिन् चित्रे अत्र भवती अत्र पश्यतु अत्र शाकविक्रेता अस्ति वा फलविक्रेता अस्ति वा अत्र सः सः तस्य नाम किं भगिनि? अत्र भवती किं चिन्तयति? अत्र वदतु.
अहं ताम् अवगच्छामि, प्रयत्नोमि.
अस्तु भगिनि, अधुना किं कुर्मः, किञ्चित् सम्भाषणं कुर्मः. वंशसुधा भगिनी भवती शृणोतु भगिनि, गीताञ्जलि भगिनी वंशसुधा भगिनी अत्र भगिनी गीताञ्जलि भगिनी पठितवती. अधुना वयं किञ्चित् अस्मिन् विषये चिन्तनं कुर्मः. उत्तमम्. अत्र भवती किं चिन्तयति, अत्र सः शाकविक्रेता वा अथवा फलविक्रेता वा?
द्वौ अपि अस्ति अहं चिन्तयामि.
उत्तमं, द्वयमपि
द्वयमपि.
अत्र प्रथमं वाक्यमस्ति, तस्य नाम किम्?
एतस्य नाम केशवः.
केशवः, अपि च केशवस्य पुरतः किम् अस्ति?
केशवस्य पुरतः शतकः, शतकः अस्ति.
शकटस्य पृष्ठतः कः अस्ति?
शकटस्य पृष्ठतः केशवः अस्ति.
अनन्तरं तस्य पृष्ठतः वसतिमन्दिरम् अस्ति इति उक्तमस्ति. अत्र तस्य इत्युक्ते कस्य?
तस्य केशवः, केशवपृष्ठतः.
केशवस्य वा अथवा तस्य पृष्ठतः? अत्र तस्य इत्युक्ते केशवः इति वदामः वा, नो चेत् शकटस्य इति वदामः वा?
केशव इति पदं केशवस्य.
केशवस्य, उत्तमम्. अत्र केशवः इति, केशवः इति पदस्य षष्टिरूपं केशवस्य. अनन्तरं तस्य दक्षिणतः कः अस्ति?
तस्य दक्षिणतः देवालयः अस्ति.
इत्युक्ते केशवस्य दक्षिणतः देवालयः
अस्ति.
देवालयस्य वामतः किम् अस्ति?
देवालयस्य वामतः वृक्षाः, मन्दिरमस्ति,
वसतिमन्दिरम् अस्ति. केवलम् अहं विपरीतक्रमेण पृच्छामि. अनन्तरम् अत्र देवालयस्य वामतः वृक्षः अस्ति. वृक्षस्य दक्षिणतः?
वृक्षस्य दक्षिणतः मन्दिरम् अस्ति, देवालयम् अस्ति.
उत्तमम्. देवालयस्य उपरि किम् अस्ति?
देवालयस्य उपरि आकाशः अस्ति.
आकाशः
अथवा?
उत्तमम् उत्तमम्. आकाशः अस्ति. अनन्तरं शकटस्य अधः किम् अस्ति?
शकटस्य अधः शुनकः अस्ति.
उत्तमम्. अत्र शकटसाधः शुनकः अस्ति. इत्युक्ते भवती एतानि वाक्यानि पठनस्य अनन्तरं किम् अवगतवती? अत्र अत्र मुख्यबिन्दुः कः? वाट् इस् द इम्पार्टेण्ट् पायिण्ट् हियर्?
सर्वे अपि न जानामि.
अहम् अधुना अहं किञ्चित् वदामि अस्मिन् विषये. अत्र यदि वयं वामतः, दक्षिणतः, पुरतः, पृष्ठतः अथवा उपरि, अधः एतानि पदानि योजयित्वा वाक्यरचनां कुर्मः चेत् तदा सर्वदा तस्मात् पुरतः षष्टिविभक्तेः उपयोगमेव कुर्मः. अत्र पश्यन्तु, केशवस्य पुरतः, शकटस्य पृष्ठतः अथवा तस्य दक्षिणतः, तस्य वामतः, देवालयस्य उपरि, शकटस्य अधः. इत्युक्ते अत्र एतानि पदानि षष्ट्यन्तरूपाणि. अत्र मुख्यबिन्दुः तदेव. इत्युक्ते एतानि षट् पदानि योजयित्वा यदा कदापि वयं वाक्यरचनां कर्तुमिच्छामश्चेत् सर्वदा तस्मात् पुरतः, एतेषां पदानां पुरतः षष्टिविभक्तेः उपयोगम् एव कुर्मः. तदेव अत्र मुख्यबिन्दुः. उत्तमम्. अधुना वंशसुधा भगिनी भवती एव पर अत्र अन्यः विषयः अपि अस्ति. पुंलिङ्गपदानां षष्ठीविभक्त्यन्तरूपं किं भवति
भगिनि? किं पदं पदं किं भगिनि? केशवस्य
केशवः
केशवः केशवस्य शकटः शकटस्य
वसतिमन्दिरं
वसतिमन्दिरस्य नपुंसकलिङ्गे पदमस्ति वसतिमन्दिरस्य
इत्युक्ते अत्र सौलभ्यमस्ति. यदि नपुंसकलिङ्गपदं वा पुंलिङ्गं वा अस्ति चेत् तत्र षष्ठीविभक्तेः रूपम् अस्य इति आगच्छति. तत्र सौलभ्यमस्ति. परन्तु स्त्रीलिङ्गपदं योजयित्वा वदामश्चेत् अत्र देवालयः इत्यस्मिन् स्थाने पाठशाला स्थापयित्वा वदतु.
पाठशालायाः
तावदेव तदेव अस्माकं स्मर्तव्यं. दट् इस् द इम्पार्टेण्ट् थिङ्ग् टु रिमेम्बर्. अहम् अधुना वदामि, यदि सीतारामलक्ष्मणाः वनं गतवन्तः चेत् तदा कस्य पुरतः कः गच्छति वदतु.
रामस्य पुरतः पृष्ठतः सीता सीता गच्छति. सीतायाः पुरतः लक्ष्मणः गच्छति.
तथा उक्तवन्तः वा? तथा न उक्तवन्तः.
रामस्य पुरतः सीतायाः पुरतः लक्ष्मणः च गच्छति.
प्रथमतया लक्ष्मणः गच्छति, तस्य पृष्ठतः रामः गच्छति. तदेव अहं श्रुतवती. तदेव रामायणं पठामश्चेत् तत्र प्रथमतया लक्ष्मणः गच्छति, तस्य पुरतः तस्य पृष्ठतः रामः गच्छति, तस्य पृष्ठतः सीता गतवती. तथा एव वयम् अत्र कार्यालये वा अथवा अस्माकं गृहे वा अथवा देवालये वा यत्र कुत्रापि
भगिनी क्षम्यतां भगिनी. If I understood that correctly, I'm not sure. Sita was in the middle of Rama and Lakshmana, na bhagini?
Aham shrutavati prathamataya Lakshmana hagatavan, tasya prushtataha Ramam, Rama hagatavan, tatha aham pakhitavati, kimapi bhagini. Chinta mahtu tasmin vishye, tattu avashyakam naaste kevalam prichyami. Yadi tadeva samyakasti chat samyakeva.
No, my meaning was just wanted to understand the prishtataha purataha properly.
Aham tatha patitavati. Prathamatya Lakshmanaha chalati, tasya prishtataha Ramaha chalati, anantaram Sita anusarati iti. Tatha aham patitavati. Anantaram adya पाठशाला वा इति पश्यामश्चेत् तत्र वस्तूनि दृष्ट्वा किं किं कुत्र अस्ति. अधुना मम पुरतः सङ्गणकमस्ति अथवा घटी अस्ति अथवा किञ्चित् म्यूट् करोमि, अपि च एका घटी अस्ति तथा भवन्तः अवगतवन्तः इति भाति. अत्र पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अपि च अधः. परन्तु अत्र मुख्यबिन्दुः किम् इत्युक्ते एतेषां पदानां पुरतः सर्वदा षष्टिविभक्तेः उपयोगमेव कुर्मः. तथा एव बहिः इति पदात् पूर्वं पञ्चमीविभक्तेः उपयोगं कुर्मः. तदेव अत्र विषयः वार्ता. अनन्तरम् अत्र शोभा भगिनी भवती करोतु, अत्र द्वात्रिंशत्तमे पुटे एकः अभ्यासः अस्ति 8.2 आभागे.
आं भगिनि. एतत् चित्रं पश्यतु, अनन्तरम् एतानि वाक्यानि शुद्धानि अशुद्धानि वा इति लिखतु. गृहस्य पुरतः वृक्षः अस्ति, उदाहरणमस्ति, तत् वाक्यं सम्यक् एव. गृहस्य वामतः उद्यानम् अस्ति, वाक्यं सम्यक् नास्ति. गृहस्य पुरतः वृक्षः, गृहस्य वामतः उद्यानम् अस्ति. बालकः वृक्षस्य उपरि अस्ति.
अत्र वयं किं कुर्मः इत्युक्ते गृहस्य वामतः उद्यानम् अस्ति इति वाक्यं दत्तमस्ति. किञ्चित् यदि भवती समीकृत्य वक्तुमिच्छति चेत् वदतु तत्र गृहस्य वामतः किम् अस्ति.
गृहस्य वामतः उद्यानं तत्पदम् अत्र कर्मपदम् अस्ति वा भगिनि अथवा उद्यान
अत्र अस्ति इति पदम् अकर्मकधातुः अस् धातुः अकर्मकधातुः अतः तत्र न कदापि कर्मपदं सम्भवति. अत्र पदम् एव अत्र पदमेव उद्यानम् उद्यानं नपुंसकलिङ्गपदं तावदेव. अत्र अत्र वाक्यं गृहस्य वामतः उद्यानं नास्ति. तदर्थं यदि भवती चित्रं दृष्ट्वा वक्तुमिच्छति चेत् अत्र किं वदामः वामतः किम् अस्ति अस्ति वा किमपि.
हा नास्ति भगिनि. हा गृहस्य वामतः उद्यानं नास्ति
नास्ति. अनन्तरं तृतीयं
बालकः वृक्षस्य उपरि अस्ति. बालकः वृक्षस्य अधः अस्ति.
उत्तमम्. उपरि किम् अस्ति.
उपरि वानरः अस्ति.
उत्तमं.
बालक वृक्षस्य अधः कुक्कुटः अपि अस्ति.
उत्तमं.
वृक्षस्य अधः वृद्धः अस्ति. वृक्षस्य अधः वृद्धः नास्ति. वृक्षस्य अधः बालकः अस्ति.
उत्तमं.
गृहस्य पृष्ठतः मार्गः अस्ति. वयं न द्रष्टुं शक्नुमः गृहस्य पृष्ठतः किम् अस्ति. गृहस्य पृष्ठतः मार्गः अस्ति अथवा नास्ति वयं न जानीमः.
न जानीमः. उत्तमम् उत्तमम् इत्युक्ते अत्र उत्तमम् अत्र गृहस्य पृष्ठतः गिरिः अस्ति इति वक्तुं शक्नोमि वा. वक्तुं शक्नोमि पर्वतः वा गिरिः वा.
पृष्ठतः आं भगिनि पृष्ठतः अथवा दक्षिणतः. गृहस्य पृष्ठतः पर्वतानि सन्ति. बालकस्य हस्ते नारिकेलफलम् अस्ति. बालकस्य हस्ते नारिकेलफलं नास्ति. तस्य हस्ते दण्डम् अस्ति.
उत्तमं. दण्डः. किमर्थं भगिनि अत्र सर्वे पश्यन्तु अत्र किमर्थम् अहं समीकृतवती इत्युक्ते द रीसन् वै ऐ एम् करेक्टिङ्ग् यू इस् इफ् यु नो द वर्ड्स् करेक्ट्लि रैट् नौ इट् विल् बि रियलि बेनिफिट् इट् इस् ए ग्रेट् अड्वान्टेज् फर् यू when you go to the higher classes. Otherwise, no, whether the padam is pumlinga padam adhva napumsakalinga padam, if we are not clear about it, then we'll make big mistakes when doing the dhitiya vibhakti. Right? So, it's always an added advantage to know that certain words are pumlinga. At least some common words. अत्र पर्वताः इति अथवा गिरिः इति वयं जानीमश्चेत् तत्र उत्तमं भवति. इफ् यु नो वेरि क्लियर्ली अबौट् द जेण्डर् आफ़् दट् वर्ड् इट् विल् बि एन् आडेड् एड्वान्टेज् दट् ईस् द ओन्ली रीसन् ऐ एम् करेक्टिङ्ग् यु.
नो नो अस्तु भगिनि वेरि अड्वान्टेजस् एव.
अस्तु अस्तु वदतु. बालकस्य हस्ते
दण्डः अस्ति.
उत्तमं. दण्डः किमर्थं.
दण्डः अर्थं स्टिक् अस्ति.
किमर्थं
बालकः दण्डेन वानरः दण्डयितुम् अथवा थ्रेटनिङ्ग् हिम् टु गेट्
उत्तमं
दण्डेन वानरस्य भीतः कर्तुं प्रयत्नं करोति.
उत्तमं, तद् तदेव वाक्यं. गीताञ्जलि भगिनी भवती समीकरोतु, किञ्चित् समीकरोतु वाक्यं. तदेव वाक्यं, सः बालकस्य हस्ते दण्डः अस्ति, परन्तु अहम् उक्तवती किमर्थं सः दण्डं धृतवान्. वदतु गीताञ्जलि भगिनि.
बालकः दण्डेन वानरः तर्जयति.
उत्तमं, वानरं तर्जयति.
भगिनी तर्जयति प्रापर् मीनिङ्ग् किम् अस्ति भगिनी? तर्जयति इस् लैक् अड्मोनिश्.
यदि भवती हस्तं पश्यामश्चेत् तत्र एका अङ्गुली अस्ति, नाम अस्ति तर्जनी.
Tarjani, like shaking your fingers and saying no.
Tadardhameva atra, your index finger is called Tarjani.
Tarjani, Tarjani bhyam.
Tarjani bhyam. Adhuna, adhya vayam anguli naam kalaha haiti naam na ekam kadham pathamaha tasmin asti. Atra index finger is chukte Tarjani. तदर्थमेव अहं तर्जन्या तर्जयामि.
अहं पठामि भगिनि, दट्स् वै अहं पृच्छामि पृच्छामि.
अत्र यथा गीताञ्जलि भगिनी उक्तवती, बालकः दण्डेन तर्जयति अथवा बालकः दण्डेन ताडयितुम् इच्छति अथवा दण्डयितुम् इच्छति. कं दण्डयति?
वानरं दण्डयति.
उत्तमम्, इत्युक्ते अत्र दण्डयति, ताडयति, तर्जयति, एतेषां पदानां तत्र एतानि पदानि सकर्मकक्रियापदानि.
आं भगिनि,
तदर्थमेव कं दण्डयति अथवा कं ताडयति अथवा कं तर्जयति. बालकं वानरं तर्जयति बालकः.
भगिनी अहं कुत्र बहूनि पदानि प्राप्तं शक्नोमि?
प्राप्तुं शक्नोमि. उत्तमं, कथम्? अहम् एक आन्लैन् वेब्सैट् प्रेषयिष्यामि. तस्मिन् तत्र डिक्शनरि अस्ति, डिक्शनरीं पश्यामश्चेत् तत्र ज्ञातुं शक्नुमः. अहं चिन्तयामि वंशसुधा भगिनी भवती अपि जानाति वा? अहं चिन्तयामि सा जानाति इति भाति. आन्लैन् संस्कृत डिक्शनरि
बहूनि सन्ति भगिनि. वामनाब्दे, वामनाब्दे मोनीर् विलियम्स् अस्ति, शब्दकल्पद्रुमः अस्ति, सर्वे अपि अस्ति. सैट् एकः सैट् अस्ति, वेब्सैट् अस्ति, सर्वे अपि डिक्शनरी सन्ति.
उत्तमम्, इत्युक्ते यदि भवती किञ्चित् प्रेषयति चेत् उत्तमं भवति. भवती प्रेषयति वा?
आम् आं भगिनि, अहं भवत्याः भवतीं प्रेषयामि.
उत्तमं भगिनि. गीता वदतु भगिनि, गीताञ्जलि भगिनि.
अहमपि उपयोगं स्पोकन् संस्कृत् डाट् आर्ग्.
उत्तमं, तदपि प्रेषयतु. शोभा भगिनी, भगिनीं प्रेषयन्तु.
हा, स्पोकन् संस्कृत् डाट् आर्ग् अहम् उपयोगं करोमि भगिनि. तत्र अहम् ऐ हाव् टु एण्टर् वर्ड्स् टु
इङ्ग्लिश् आल्सो यू केन् एण्टर्.
हा, इङ्ग्लिश् ऐ हाव् टु एण्टर्. किन्तु अहं पृच्छवती यदि आन्लैन्
भगिनि अत्र अहं
पृष्टवती
न अत्र पृच्छामि इति पदात् पृष्टवती. अहं पश्यामि इति पदस्य तावत् प्रत्ययान्तरूपं दृष्टवती. पृष्टवती भिन्नः, दृष्टवती भिन्नः. उत्तमं, वदतु.
अहं पृष्टवती यदि अनेकपदानि अनेकानि पदानि एकस्थले अस्ति सन्ति
चेत्
बहु उपयोगं भवति,
उत्तमं लाभाय भवति,
लाभाय भवति,
उत्तमं तावदेव. अधुना वंशसुधा भगिनी वा अथवा गीताञ्जलि भगिनी वा भवत्याः पार्श्वे अस्ति चेत् प्रेषयन्तु. उत्तमम्. अधुना वयं किं कुर्मः, अधुना वयम् अत्र गीताञ्जलि भगिनी भवती वदतु अत्र
किं वदामि भगिनि.
अधुना अहं कांश्चन प्रश्नान् पृच्छामि. आकाशः कुत्र अस्ति?
आकाशः उपरि अस्ति.
सूर्यः?
सूर्यः अपि उपरि अस्ति.
चन्द्रः?
चन्द्रः अपि उपरि अस्ति रात्रौ.
रात्रौ. ताराः कुत्र सन्ति?
ताराः परितः सन्ति परन्तु
परितः न ताराः इत्युक्ते नक्षत्राणि.
नक्षत्राणि
नक्षत्राणि कुत्र सन्ति? कुत्र सन्ति
नक्षत्राणि? अपि उपरि सन्ति.
उत्तमं. भवत्याः उपरि किम् अस्ति
पुनः वदतु भगिनि.
केवलं पृच्छामि भगिनि, भवत्याः उपरि?
मम उपरि न
मम उपरि
छत्
किमपि छदः
वृक्ष नो छत् लैक् रूफ्
छदः
छदः अस्ति.
उत्तमं. छदः इत्युक्ते रूफ़. उत्तमं. इत्युक्ते अत्र भवती जानाति एव उपरि अथवा अधः. भूतलं कुत्र अस्ति?
भूतलं न जानामि भगिनि.
पृथिवी.
भूतलं अधः अस्ति.
उत्तमम्. इत्युक्ते भवती जानाति एव अत्र उपरि अधः एतेषां विषये भवती जानाति. अधुना वयं किं कुर्मः इत्युक्ते अत्र अन्तः बहिः इत्यस्मिन् विषये एकः अभ्यासः अस्ति. 8.2 भागे अभ्यासं कुर्मः. पठतु अधुना 8.2 ई भागे 33 पुटे.
क्षम्यताम्. अहम् अधुना गच्छामि भगिनि.
अस्तु अस्तु.
अहं रेकार्डिङ्ग् शृणोमि.
उत्तमं.
धन्यवादः भगिनि. नमस्कारः.
अस्तु. अधुना गीताञ्जलि भगिनी भवती पठतु.
बालकः कुत्र अस्ति? बालकः बहिः अस्ति. बालिका कुत्र अस्ति? बालिका अन्तः अस्ति. मार्जलः कुत्र अस्ति? मार्जलः अन्तः अस्ति. शुनकः कुत्र अस्ति? शुनकः बहिः अस्ति.
उत्तमं. मम पार्श्वे एकः चषकः अस्ति, अत्र जलमस्ति, कथं वदामः? जलं कुत्र अस्ति?
भवान् पार्श्वे जलं कषकस्य अन्तः अस्ति.
अत्र भवत्याः पार्श्वे
भवत्याः पार्श्वे जलं कषकस्य अन्तः अस्ति.
चषकस्य अन्तः अस्ति.
चषकः
चषकः जानाति वा चषकः इत्युक्ते किम्?
चषक ग्लास्.
ग्लास् उत्तमं. चषकस्य अन्ते अस्ति. आम् तथा एव नद्यां जलमस्ति तथा किं वदामः?
नद्याः अन्तः जलम् अस्ति.
जलम् अस्ति उत्तमम्. अपि च बालकः क्रीडाङ्गणे क्रीडति तदा किं वदामः? बालकः बहिः अस्ति. तथा उत्तमम्. अधुना वयं किञ्चित् अत्र एकं करपत्रं प्रेषितवती तत्र योगी इत्यस्मिन् विषये पठामः वा? तत्तु अत्र वंशीसुधा भगिनी भवत्याः पार्श्वे अन्यं करपत्रम् अस्ति चेत् पश्यतु. अत्र योगी दृश्यते.
एकः कथा अस्ति. मम पार्श्वे मङ्गलवारस्य मङ्गलवासरस्य संस्कृतवर्गस्य प्रथमगणस्य इति लुप्तः भवति भगिनि. इदानीम् अस्ति मम पार्श्वे.
अस्तु अत्र द्वितीयं करपत्रम् अत्र योगी सुचौ देशे आसनं प्रतिष्ठापयति इति अस्ति. पठतु. अत्र कुत्र नाम्ना एकं करपत्रमस्ति.
आं भगिनी सर्वे अपि किञ्चित् यदि गीताञ्जलि भगिनी पार्श्वे अस्ति.
अत्र गीताञ्जलि भगिनी भवत्याः पार्श्वे अस्ति वा करपत्रम्?
आं भगिनि.
आं पठतु.
योगी शुचौ देशे आसनं प्रतिष्ठापयति. आसनं न अत्युन्नतं न वा अतिनीचं भवति. तस्य उपरि योगी कुशान् प्रसारयति. कुशानाम् उपरि कृष्णाजिनं स्थापयति. तदपरि वस्त्रं स्थापयति. इदानीं वस्त्रस्य अधः कृष्णाजिनं तस्य अधः कुशाः च भवन्ति. योगी तस्मिन् आसने उपविशति. सः दिशः न अवलोकते. वामतः दक्षिणतः पुरतः पृष्ठतः वापि दृष्टिं न प्रसारयति. मनः संयम्य अन्तः वर्तमानम् आत्मनमेव ध्यायति.
उत्तमम्. अत्र अधुना किञ्चित् खण्डशः पश्यामः. योगी इति पदमस्ति. अहं पूर्वमेव उक्तवती योगी इति पदं नकारान्तपदं. तदर्थमेव बहुवचनरूपं योगिनः इति भवति. अत्र शुचौ देशे आसनं प्रतिष्ठापयति इति वाक्यमस्ति. शुचौ देशे आसनं प्रतिष्ठापयति. अत्र वंशसुधा भगिनी प्रथमाविभक्तिरूपं किं वदतु?
आं भगिनि अस्ति अस्ति. इदानीं मम पार्श्वे किञ्चित् सर्वे अपि पुनरेकवारं वदतु भगिनि.
शुचौ देशे आसनं प्रतिष्ठापयति अस्ति. अत्र शुचौ देशे विभक्तिः का?
सप्तमीभक्ति. शुचौ देशे सप्तमीभक्तौ.
प्रथमाविभक्तिरूपं किं?
शुचि देशः.
शुचिः देशः. उत्तमम्. अत्र प्रतिष्ठापयति इति पदमस्ति. अत्र प्रतिष्ठापयति इत्यस्मिन् विषये किञ्चित् वदति वा? ह्यः एव वयं व्याकरणवर्गे पठितवन्तः.
आम् आं भगिनि. प्रा इति उपसर्गः अस्ति. तिष्ठापयति इति चुरादिगणे अस्ति खलु तिष्ठापयति
चुरादिगणे
तिष्ठति तिष्ठापयति किमर्थम् तिष्ठति
अधुना अधुना भवती किञ्चित् उक्तवती अहं किञ्चित् इतोपि वदामि अत्र अत्र प्रति इति उपसर्गः अपि च स्था इति धातुः अत्र प्रतिष्ठापयति इति निजन्तपदम् अत्र सूत्रमस्ति अर्ति ह्री व्लि क्लोयि क्ष्मायातां पुङ्नौ इति सूत्रेण अत्र पुगागमः भवति पकारः आगच्छति स्थापयति तत्र स्थापयति इति निजन्तरूपं प्रतीति उपसर्गपूर्वकं परन्तु अत्र लट्लकाररूपमस्ति तिष्ठति स्थाधातुतः तिष्ठति इति लट्लकाररूपम् आगच्छति यदि वयम् उपसर्गं निष्कासयामश्चेत् अत्र निजन्तसूत्रमस्ति आतां पुङ्नौ इत्युक्ते आताम् इत्युक्ते यदि धातुः आकारान्तधातुः अस्ति चेत् पुगागमः भवति इति तस्य अर्थः स्थाधातुः दीर्घ आकारान्तधातुः अतः एव तत् सूत्रं तत्र कार्यं करोति उत्तमं भगिनि अनन्तरम् अत्र आसनम् इति पदमस्ति
बहु सम्यक् धन्यवादः धन्यवादः भगिनि बहु सम्यक् उक्तवती
अनन्तरम् आसनम् इति पदमस्ति तस्मिन् विषये जानाति वा किञ्चित् वदति वा
आसनः पुल्लिङ्गशब्दः आसनं द्वितीयविभक्तिः अस्ति भगिनि
आसनं प्रतिष्ठापयति उत्तमम् आसनम् अस्मिन् वाक्ये आसनम् इति कर्मपदम् अत्र आसनम् इति पदस्य विषये अपि आसनम् इति पदं ल्युडन्तरूपं ल्युट् ल्युट् प्रत्ययान्तरूपम् अत्र किञ्चित् वदामि अत्र आसनम् इति पदम् आस्ते इति तत्र क्रियापदमस्ति आस् धातुः आस् धातुतः आगच्छति अत्र आस्ते इति आत्मनेपदीरूपं परन्तु अत्र आसनम् इति पदं ल्युडन्तरूपं ल्युट् प्रत्ययान्तरूपम् इति वदामः अनन्तरं तत् आसनं न अत्युन्नतं न वा अतिनीचं भवति अत्र अत्युन्नतं भगिनी भवती एव वदतु अत्युन्नतम् अत्र सन्धिः
अति उन्नतं
सन्धि
इकारः इकारः अकारः योगः यान्तादेशः
वदतु अत्युन्नतं वदतु गीताञ्जलि भगिनी भवती वदतु
अति उन्नतम् इकारः योगे उकारः यणसन्धि भवति
उत्तमम् उत्तमम् सूत्रं किं सूत्रं किम्
इको यणचि
उत्तमम् उत्तमं भवन्तः जानन्ति एव उत्तमं तदनन्तरं अत्र धन्यवादः अनन्तरं तस्य उपरि योगी कुशान् प्रसारयति तस्य उपरि तस्य उपरि इति अत्र षष्टिविभक्तेः रूपमस्ति तस्य उपरि योगी कुशान् प्रसारयति कुशान् रूपं किं किं प्रसारयति योगी वंशीसुधा भगिनी वदतु गीताञ्जलि भगिनी वदतु
कुशान् कुशान् इत्युक्ते कुशान्
किञ्चित् वदामि अत्र भगिनी यथा गीताञ्जलि भगिनी उक्तवती तत्तु भवती जानाति एव द्वितीयविभक्ति बहुवचनं परन्तु अत्र किञ्चित् वदामि अस्मिन् विषये अत्र यदि भवन्तः जानन्ति चेत् कुशः कुशः इत्युक्ते इट्स् ए कैण्ड् आफ् ग्रास् कुशः तेलुगुभाषायां वदामश्चेत् दर्भ इति वदामः यदि वयम् आब्दिकं तदा आचरामश्चेत् तदा तस्य उपयोगं कुर्मः इत्युक्ते तस्य सर्वदा वयम् एकं पदं योजयामः कुशाग्रबुद्धिः अत्र कुशाग्रबुद्धिः इत्युक्ते यस्य बुद्धिः कुशाग्र इव सूक्ष्मम् अथवा निर्दिष्टम् अथवा तीक्ष्णम् अस्ति तदेव कुशाग्रबुद्धिः इति वदामः. इत्युक्ते तत्र एक वृक्ष सस्यविशेषः, कुशः इत्युक्ते सस्यविशेषः, इट्स् अ कैण्ड् आफ् प्लाण्ट्, सेक्रेड् प्लाण्ट् कुशः. अत्र कुशः इति पदस्य द्वितीयविभक्ति अन्तरूपं दत्तमस्ति. यदि वयं कुशान् स्पर्शनं कुर्मः चेत् तथा सावधानतया अप्रमत्ततया करणीयं, नो चेत् किं भवति, हस्तं छेदयति, कुशः हस्तं छेदयति अथवा हस्तः छिन्नः भवति. तदर्थमेव यदि वयं कुशान् स्पृशामश्चेत् अप्रमत्ततया करणीयं तत् कार्यम्. अधुना अवगतवती वा भगिनि?
आं भगिनि,
तदेव. तदनन्तरं कुशानाम् उपरि कृष्णार्जुनं स्थापयति. गीताञ्जलि भगिनी वदतु, इत्युक्ते किं कुशानाम् उपरि? कुशानां विभक्तिः
षष्ठी विभक्ति, बहुवचनम् अस्ति, उपरि अव्यय अस्ति, कृष्णार्जुनं न जानामि.
भवती जानाति वा कृष्ण इत्युक्ते किं, कृष्णवर्णः?
कृष्णवर्णः ब्लाक्, डार्क्.
उत्तमम्, उत्तमं. कृष्णवर्णः इत्युक्ते ब्लाक्, परन्तु अत्र कृष्णार्जुनम् इत्युक्ते तत्र कृष्णवर्णस्य मृगस्य चर्म. इट् इस् द स्किन् आफ् ए डियर्.
But if skin of deer is light color, it is dark one, this one.
They use the dark ones.
So,
Krishna Varnasya. Atra, atra, padam Samskrita Bhagini?
Padam kim Krishna ha yoga ha?
Atra, ajinam. Atra, Savanandirke Sandhihi Bhavati.
Ajinam.
अजिनम् इत्युक्ते संस्कृतभाषायां मृगः, मृगः इत्युक्ते डियर्. तदर्थमेव कृष्णवर्णस्य मृगस्य त्वक्, त्वक् एव त्वक् अथवा चर्म, चर्मपदमपि नकारान्तपदं चर्मन्, परन्तु प्रथमाविभक्तिरूपं चर्म. अपि च त्वक्, त्वक् इत्युक्ते त्वक् अपि किन् इति वदामः, त्वक् इति त्वक् त्वचौ त्वचः चकारान्त पदम्.
एकवचन किं पदं त्वक्?
त्वक् एव भगिनि, त्वक् त्वचौ त्वचः इत्युक्ते चकारान्तपदं, परन्तु प्रथमाविभक्ति एकवचनरूपं त्वक् भवति. पदन्तु चकारान्तपदम्. तदर्थमेव यदि यदि सप्तमी रूपं वदामश्चेत् त्वचि भवति. अत्र योगी किं करोति, योगी कुशानाम् उपरि कृष्णार्जुनं स्थापयति. अत्र पश्यन्तु सर्वेषु स्थलेषु अत्र तस्य उपरि तथा कुशानाम् उपरि इत्युक्ते षष्ठीविभक्तेः उपयोगमेव अत्र कृतवन्तः. अग्रिमं वाक्यं पठतु भगिनि, तदुपरि.
अस्मि भगिनि,
भवती एव, भवती एव.
कुशानाम् उपरि कृष्णार्जुनं स्थापयति, तदुपरि वस्त्रं स्थापयति.
तदुपरि, अत्र वंशीसुधा भगिनी, तदुपरि अत्र सन्धिः जानाति वा, सन्धिं जानाति वा?
तद् उपरि उकार
अत्र
अकार उकार गुणसन्धि भवति
न भगिनि, अत्र तत् प्रथमतया तद् भवति,
तद्
भवति. अत्र हल् सन्धिः इति वदामः. भवती इदानीं पर्यन्तम् अच् सन्धिं जानाति, परन्तु अत्र हल् सन्धिः अस्ति इत्युक्ते अत्र तत् योगः उपरि तदुपरि. अत्र प्रथमतया तकारस्य स्थाने दकारादेशः भवति. गीताञ्जलि भगिनी जानाति वा?
आम् किन्तु न सम्यक् अवगत.
अस्तु अस्तु अस्तु. अत्र जस्वसन्धि इति वदामः. अनन्तरं हल् सन्धिः. हल् सन्धिः उत्तमम्. अनन्तरम् इदानीं वस्त्रस्य अधः कृष्णार्जुनं, वस्त्रस्य अधः कृष्णार्जुनं, तस्य अधः कुशाः च भवन्ति. अपि च योगी तस्मिन् आसने उपविशति, तस्मिन् आसने उपविशति. सः दिशः न अवलोकते. अत्र दिशः इति नूतनं पदमस्ति. जानाति वा दिशः इत्यस्मिन् विषये? डैरेक्षन्. पदस्य विषये किञ्चित् वदतु.
विभक्ति एकवचनम्.
अत्र पुनः एकवारं पश्यतु किमर्थं चेत् अत्र दिक् दिक् प्रथमाविभक्ति एकवचनरूपं दिक्
दिक्.
परन्तु एतत् पदं तालव्यशकारान्तपदं श तालव्यशकारान्तपदं दिक् दिशौ दिशः दिक् दिशौ दिशः प्रथमाविभक्तिरूप. आं भगिनि वदतु.
दिशः इति बहुवचनरूप अस्ति न खलु?
उत्तमम् उत्तमं. बहुवचनरूपं तथा एव दिशः इति पदं तस्मिन् शब्दे त्रिवारं वा अथवा त्रिवारम् आगच्छति इति भाति. त्रिवारम् अथवा चत्वारि पर्यन्तं. किमर्थं चेत् प्रथमाविभक्ति बहुवचनान्तम् अपि दिशः, द्वितीयाविभक्ति बहुवचनान्तम् अपि दिशः, पञ्चमी एकवचनं, षष्टि एकवचनं. अत्र
शकारान्तं
दिश्
दिश् एव
दिश् प्रातिपदिकं दिश्. परन्तु प्रथमाविभक्ति एकवचनं एव दिक् भवति. परन्तु अन्यानि पदानि सर्वाणि अपि दिक् दिशौ दिशः, दिशं दिशौ दिशः तथा भवति. परन्तु सप्तमी बहुवचनं किञ्चित् वैशिष्ट्यमस्ति तत्र. दिक्षु इति वदामः. दिक्षु किमर्थमित्युक्ते तत्र दिक् अपि च षकार योजयामश्चेत् तत्र क्ष इति रूपम् आगच्छति. तदा सप्तमी बहुवचनरूपं दिक्षु भवति. परन्तु अत्र दिशः इति पदं कस्यां विभक्तौ अस्ति, कस्यां विभक्त्याम् अस्ति?
सः दिशः न अवलोकते.
उत्तमम् इत्युक्ते अत्र सः योगी न अवलोकते. किं न अवलोकते?
दिशः न अवलोकते.
उत्तमम् इत्युक्ते अत्र भगिनि गीताञ्जलि
कोऽपि दिशः न अवलोकते.
उत्तमं. कोऽपि दिशा, कोऽपि दिक्. किमर्थं कोऽपि दिक् न अवलोकते? एकवचनं कोऽपि.
आं भगिनि, कोऽपि दिक् न अवलोकते.
बहुवचने वदतु.
कोऽपि का
अत्र अहं चिन्तयामि स्त्रीलिङ्गपदम् इति भाति.
स्त्रीलिङ्ग कापि
कापि दिशः
न अवलोकते.
अत्र पश्यन्तु दिशः इति पदम् अत्र विसर्गः अस्ति. परन्तु अत्र चिन्तनं कथम् अस्ति इति चिन्तयन्तु. अत्र दिशः इति पदं न तु पुंलिङ्गपदं, न तु अजन्तपदं, परन्तु हलन्तपदं, शकारान्तपदम्. अपि च तस्मिन् शब्दे स्त्रीलिङ्गपदम् इति अहं चिन्तयामि. परन्तु अत्र प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं अपि च पञ्चमी एकवचनं षष्टि एकवचनम् अपि दिशः एव. दिशः न अवलोकते, अपि च वामतः दक्षिणतः पुरतः पृष्ठतः वा अपि दृष्टिं न प्रसारयति. अत्र प्रसारयति इत्युक्ते किं भगिनि?
दृष्टिं न शक्नोति.
उत्तमम्. इत्युक्ते तस्य दृष्टेः प्रसरणं न करोति. अत्र अत्र प्रा उपसर्गपूर्वकः श्रुधातुः. अपि च
प्रसारयति इति पदं भगिनि,
प्रसारयति इति पदं प्रा उपसर्गपूर्वकः श्रुधातुः, अपि च निजन्तपदं निजन्तक्रियापदम्. अग्रे गत्वा वयं पठिष्यामः व्याकरणवर्गे सम्प्रसारणम्. काचित् प्रक्रिया अस्ति, सम्प्रसारणम् इति प्रक्रिया अस्ति. इत्युक्ते अत्र योगी तस्य दृष्टेः प्रसरणं न करोति, अपि च मनः संयम्य अन्तः वर्तमानम् आत्मानम् एव ध्यायति. अत्र मनः संयम्य, गीताञ्जलि भगिनी वदतु, मनः संयम्य अत्र विभक्तिः का, रूपं किम्?
मनः प्रथमविभक्ति एकवचन, संयम्य अव्यय अस्ति, अन्तः अपि अव्ययः.
न न, अत्र भगिनि अत्र स्थगयतु, अत्र स्थगयतु किञ्चित्. संयम्य रूपं किं वंशी भगिनी वदतु?
संयम्य स्त्रीलिङ्गं भगिनि.
न, अत्र संयम्य इति पदं ल्यबन्तपदं, यथा गीताञ्जलि भगिनी उक्तवती अव्ययम्, अपि च ल्यबन्तपदं. ल्यबन्तपदम् इत्युक्ते अत्र सम् इति उपसर्गः, यम् इति धातुः. साधारणतया त्वान्तपदानि उपसर्गः नास्ति चेत् त्वान्तरूपं भवति, यदि उपसर्गः अस्ति चेत् ल्यबन्तं भवति. अत्र संयम्य इति पदं ल्यबन्तरूपम्, अपि च अव्ययम्. परन्तु यदि ल्यबन्तरूपं वा क्त्वान्तरूपं वा योजयामश्चेत् तस्मात् पूर्वं ते कर्मपदं स्वीकुर्वन्ति, अतः तस्मात् पूर्वं यत् पदमस्ति तत्तु द्वितीयविभक्तौ अस्ति. अत्र मनः इति पदमपि द्वितीयविभक्तौ एव अस्ति. परन्तु कथं जानीमः? मनः शब्दः सकारान्तशब्दः, दन्त्यसकारान्तः. यत्र प्रथमविभक्तिरूपाणि कथं भवन्ति? मनः, मनसि, मनांसि, अपि च नपुंसकलिङ्गपदं, तदर्थं द्वितीयाविभक्तेरूपमपि समानं. मनः, मनसि, मनांसि, मनः, मनसि, मनांसि. गीताञ्जलि भगिनी अवगतवती वा?
आम् आम्, किन्तु भगिनी ल्यबन्तपदं किम् अस्ति?
संयम्य.
परिभाषा किम् अस्ति
अत्र? सम् इति उपसर्गः, यम् धातुः, संयम्य ल्यबन्तपदं, मनः संयम्य. यदि ल्यबन्तपदं वा क्तवान्तपदं वा योजयामश्चेत् तस्मात् पूर्वं कर्मपदं सम्भवति, अतः एव अत्र मनः इति पदं द्वितीयाविभक्ति एकवचने अस्ति.
कदा मनः ल्यबन्तरूपं कदा उपयोगं
कुर्मः? उत्तमं. ल्यबन्तम् अभ्यासपुस्तके एव क्त्वान्तपदानि, ल्यबन्तपदानि इत्येतेषां विषये अग्रे गत्वा पठामः. परन्तु अत्र संयम्य इति पदं ल्यबन्तपदम्.
उपसर्ग अस्ति चेत् ल्यबन्तपदम्, उपसर्ग नास्ति चेत् त्वान्तपदमेव न भगिनि?
उत्तमम्, तावदेव. अत्र मनः इति पदं द्वितीयाविभक्ति एकवचनं, मनः संयम्य अन्तः वर्तमानम् अन्त अत्र अन्तः इति पदम् अव्ययं, तदर्थं तत् तस्य रूपपरिवर्तनं न कदापि भवति, अतः एव अन्तः एव दत्तमस्ति. वर्तमानम् आत्मानम् एव ध्यायति. वर्तमानम् आत्मानम् अत्र विशेषणविशेष्यभावः अस्ति. तदर्थम् अत्र वयं किं ज्ञातवन्तः? गीताञ्जलि भगिनी अत्र अवधेयं पठतु.
पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अधः अन्तः इत्येतेषां योगे पठी विभक्तिः प्रयुज्यते.
उत्तमम्. इत्येतेषाम् अत्र सन्धिः का?
इति
एतेषाम्. उत्तमं. नाम किम्?
इति एतेषां अपि यण् सन्धि भवति.
उत्तमम्. इको एणचि भवती जानाति, तदर्थमेव उक्तवती. उत्तमम्. अधुना किञ्चित् कालं केवलं पञ्चनिमिषात् पर्यन्तं वयं कथां पठामः. अङ्गुलीनां कलहः. अत्र वंशीसुधा भगिनी भवती पठतु, कथां पठतु.
आम् आं भगिनि. अङ्गुलीनां कलहः. एकदा अङ्गुलीनां कलहः भवति. अङ्गुष्ठः, तर्जनी, मध्यमा, अनामिका, कनिष्ठिका च कलहं कुर्वन्ति. अहम् अङ्गुलीनां राजा. अहम् अङ्गुलीनां राजा इति ते सर्वे निर्णयार्थं न्यायसंस्थानं गच्छन्ति. धर्माध्यक्षस्य पुरतः तिष्ठन्ति च. प्रथमम् अङ्गुष्ठः अग्रे आगच्छति, वदति च, अहम् अङ्गुष्ठः, अहं बलिष्ठः, अहं दृढत्तमः, अहमेव राजा इति. अनन्तरं तर्जिनी अग्रे आगच्छति, वदति च, अहं तर्जिनी, अहं सर्वान् तर्जयामि, अहं सर्वं सूचयामि, अहं सर्वं दर्शयामि, अतः अहमेव राजा इति. अनन्तरं मध्यमा उत्तिष्ठति, वदति च, अहं मध्यमा, अहं दीर्घतमा, अतः अहमेव राजा इति. अनन्तरम् अनामिका अग्रे आगच्छति, वदति च, अहम् अनामिका, अहं धनिकतमा, अहं बहुरत्नखचितं कनकमयम् अङ्गुलीयकं धारयामि, अतः अहमेव राजा इति. अन्ते कनिष्ठका मन्दम् उत्तिष्ठति, अग्रे आगच्छति, वदति च, अहम् अङ्गुष्ठः इव न बलिष्ठा, अहं तर्जनी इव तर्जयितुं न शक्नोमि, अहं मध्यमा इव न दीर्घा, अहं तु लघुतमा, अहम् अनामिका इव न धनिका, अङ्गुलीयकं न धारयामि, परन्तु जनाः यदा नमस्कारं कुर्वन्ति तदा अहमेव अग्रे भवामि. महोदयानां श्रेष्ठानां मम एव प्रथमदर्शनं भवति इति. एतत् सर्वं श्रुत्वा धर्माधिकारी कनिष्ठका एव सर्वासाम् अङ्गुलीनां राजा भवितुम् अर्हति इति निर्णयं करोति. बहु सम्यक् कथा, बहु सम्यक् कथा भगिनि.
उत्तमम्. उत्तमम्. अधुना वयं किञ्चित् अस्मिन् विषये किञ्चित् खण्डशः पश्यामः. अत्र गीताञ्जलि भगिनी प्रथमतया अत्र किञ्चित् वयं चिन्तनं कुर्मः. अस्माकं हस्तद्वयमस्ति अथवा पाणिद्वयमस्ति, वामहस्तः अपि च दक्षिणहस्तः. अस्माकं हस्ते पञ्च अङ्गुल्यः सन्ति. तेषां नामानि कानि? गीताञ्जलि भगिनी वदति वा नामानि?
नामानि अङ्गुष्ठः, तर्जनी, मध्यमा, अनामिका, कनिष्ठका च इति नामानि सन्ति.
उत्तमम्. अत्र पश्यतु, अङ्गुष्ठः पुंलिङ्गपदमस्ति, परन्तु अन्यानि पदानि स्त्रीलिङ्गपदानि. तर्जनी इति ईकारान्तपदं, परन्तु मध्यमा, अनामिका, अपि च कनिष्ठिका इति एतानि पदानि आकारान्तस्त्रीलिङ्गपदानि सन्ति. अत्र प्रथमतया अङ्गुलीनां कलहः भवति. अङ्गुष्ठः, तर्जनी, मध्यमा, अनामिका, कनिष्ठिका च कलहं कुर्वन्ति. किं कुर्वन्ति?
कलहं कुर्वन्ति.
ते किम् उक्तवन्तः? कलहस्य कारणं किम्? कलहस्य कारणं किम्?
प्रति अङ्गुली अङ्गुली अङ्गुली
अङ्गुली
राजा इति वदति
वदति. तदर्थं किं कलहः भवति? साधारणतया तदा चिन्तनं कुर्वन्ति चेत् साधारणतया तत्र कलहः भवति एव. तदर्थं ते किं कुर्वन्ति? तदनन्तरं निर्णयार्थं न्यायस्थानं गच्छन्ति. न्यायस्थानं गत्वा तत्र धर्माध्यक्षस्य पुरतः, अत्र पश्यतु, धर्माध्यक्षस्य पुरतः तिष्ठन्ति. अत्र तिष्ठन्ति इति पदमस्ति, वयं जानीमः एव, स्थाधातुतः तिष्ठन्ति इति पदम् आगच्छति. अनन्तरम् अत्र प्रथमतया कः वदति? वदतु.
एकदा अङ्गुलीनाम् इति षष्ठी विभक्तौ अस्ति भगिनि.
अङ्गुलीनां वदतु भगिनि, गीताञ्जलिभगिनी. अङ्गुलीनां विभक्तिः वचनं वदतु.
बहुवचनं षष्ठी.
षष्ठी विभक्ति बहुवचनम् अस्ति.
लिङ्गं किम्?
स्त्रीलिङ्गम्.
उत्तमं. स्त्रीलिङ्गं षष्ठी बहुवचनं वदतु
भगिनी. इदानीं सम्बन्धः नास्ति, अङ्गुलीनां कलहः अङ्गुलीयां कलहः भवति, अङ्गुलीनां कलहः भवति.
अङ्गुलीनां कलहः
फिङ्गर्स् फै
आफ् आफ् अपि वदामः. द फैट् आफ्
ओ फैट् आफ् आफ् धन्यवादः.
अत्र अङ्गुली ईकारान्तपदम्, अङ्गुलीनां षष्ठी बहुवचनं. षष्ठी विभक्तेः उपयोगं बहुषु स्थलेषु भवति. साधारणतया षष्ठी विभक्तेः उपयोगमेव साधारणतया कुर्मः. बहु प्राचुर्यमस्ति तस्य. अनन्तरं भगिनि वदतु.
किं वदामि
अत्र प्रथमम्? अङ्गुष्ठः अग्रे आगत्य किं वदति?
प्रथमम् अङ्गुष्ठः अग्रे वदति, अहम् अङ्गुष्ठः, अहं बलिष्ठः, अहं दृढतमः, तथा अहमेव राजा इति वदति.
उत्तमम्. अनन्तरं कः वदति, का वदति?
अनन्तरं तर्जिनी वदति, अहं तर्जिनी, अहं सर्वान् तर्जयामि, अहं सर्वं सूचयामि, अहं सर्वं दर्शयामि, अतः अहमेव राजा इति वदति.
उत्तमम्. अत्र तर्जिनी सर्वेषां तर्जनं करोति, सर्वान् तर्जयति, तदर्थमेव तस्य नाम तर्जनी. तर्जनी इत्युक्ते इण्डेक्स् फिङ्गर्. तदर्थमेव वयं जानीमः एव, साधारणतया जनाः वदन्ति तर्जनं भर्जनम् अभवत्. तर्जनम् इत्युक्ते अत्र तर्जयति, तर्जयति इत्युक्ते थ्रेटन्, थ्रेटन् करोति. अत्र पश्यन्तु, अत्र एकः अत्र अहम् अङ्गुलीनां राजा इति वाक्यं पश्यन्तु. अत्र अहम् अङ्गुलीनां राजा, अत्र अहम् इत्यस्मिन् पदे अन्तिमवर्णः मकारः, तत्र अनुस्वारः नास्ति. पश्यन्ति वा किमर्थं तथा?
मकार बिन्दुना परिवर्तनं यदि परे.
उत्तमम्. इत्युक्ते स्वरः पदस्य अनन्तरं परवर्णः स्वरः अस्ति चेत् तदा मकारस्य परिवर्तनं न भवति. मकारः एव तिष्ठति. यदि परवर्णस्य परपदस्य प्रथमवर्णः व्यञ्जनमस्ति चेत् व्यञ्जनवर्णः अस्ति चेत् तदा मकारः अनुस्वारः भवति. तस्य कृते एकः सन्धिः एकः सन्धिः अस्ति, तस्य नाम अनुस्वारसन्धि. तत्र सूत्रमस्ति अनुस्वारस्य ययी परसवर्णः. अत्र तेन सूत्रेण तत्र यदि परपदस्य प्रथमवर्णः व्यञ्जनमस्ति चेत् पूर्वपदस्य मकारः, पूर्वपदस्य अन्तिमवर्णः मकारः, मकारस्य स्थाने अनुस्वारादेशः भवति इति तत् सूत्रं वदति. अनन्तरम् अत्र मध्यमा उत्तिष्ठति अपि च वदति. अहं किमर्थम् अहं राजा भवितुम् अर्हामि? वदतु भगिनि, वंशसुधा भगिनि, मध्यमा किमर्थम् अहमेव राजा भवितुम् अर्हामि इति?
अहं मध्यमा वदति अहं दीर्घतमा, अतः अहमेव राजा, अहं दीर्घमस्ति
तदर्थम् अहमेव राजा. अत्र पश्यन्तु, अत्र दीर्घतमा इति दत्तमस्ति, परन्तु अत्र भवन्तः जानन्ति एव आङ्ग्लभाषायां ब्यूटिफुल्, मोर् ब्यूटिफुल्, मोस्ट् ब्यूटिफुल् तथा एव अत्र संस्कृतभाषायां तथा एव अत्रापि अस्ति दीर्घा दीर्घतमा, दीर्घा दीर्घतरा दीर्घतमा.
पुनः वदतु भगिनि.
अत्र प्रथमतया यदि अङ्गुली दीर्घा अस्ति चेत् एषा अङ्गुली दीर्घा. अपि च पश्यन्तु अत्र कनिष्ठिका अस्ति, कनिष्ठिकायाः अपेक्षया कनिष्ठिकायाः अपेक्षया अनामिका दीर्घा अस्ति, अपि च अनामिकायाः अपेक्षया मध्यमा दीर्घतमा अस्ति.
दीर्घतमा
अनामिका दीर्घतरा अस्ति.
दीर्घतमा आ आकार अन्तिम स्त्रीलिङ्ग अङ्गुली
तदर्थमेव, तदर्थमेव अङ्गुली इति ईकारान्तपदं, तदर्थमेव तमा अस्ति. परन्तु अहम् अत्र किं वक्तुमिच्छामि चेत् अत्र दीर्घतरा दीर्घतमा सूपर्लेटिव् डिग्री आङ्ग्लभाषा वदतु.
दीर्घतरा किमर्थं?
दीर्घतरा इत्युक्ते इतोपि दीर्घः, दीर्घा प्रथमतया दीर्घा दीर्घतरा दीर्घतमा. इत्युक्ते सूपर्लेटिव् डिग्रि मोस्ट् ब्यूटिफुल्, साधारणतया मोस्ट् ब्यूटिफुल् इति वदामः, तदेव अत्र मध्यमा वदति अहं दीर्घतमा अङ्गुली. अनन्तरं भगिनी वदतु.
सारी, इन् इङ्ग्लिश् ऐ लास्ट् वेन् डु यु यूस् दीर्घतरा वर्सेस् दीर्घतमा?
अत्र पश्यतु अस्माकं मम हस्ते पञ्च अङ्गुल्यः सन्ति, अत्र कनिष्ठिका अस्ति, कनिष्ठिका लघुतमा, तस्य अपेक्षा तस्याः अपेक्षया अनामिका अस्ति, अनामिका दीर्घतरा, अपि च अनामिकायाः अपेक्षया मध्यमा दीर्घतमा. जानाति वा? अनन्तरम् अधुना अनामिका आगच्छति कलहं कर्तुम्. अनामिका किं वदति?
अनामिका वदति अहम् अनामिका, अहं धनिकतमा,
अहं
बहुरत्नखचितं कनकम् अयम् अङ्गुलीयकं धारयामि, अतः अहमेव राजा इति वदति.
उत्तमम्. अनामिका धनिकतमा. किमर्थं धनिकतमा? सा बहुरत्नखचितं कनकमयम् अङ्गुलीयकं धारयति. अत्र खचितम् इति पदमस्ति. खचितम् इत्युक्ते किं? तत्र एकः धातुः अस्ति खचति. खचति इत्युक्ते बध्नाति. खचित रत्नखचित बहुरत्नखचित कनकमयम् अङ्गुलीयकं धारयति. का धारयति? अनामिका धारयति. तदर्थम् अनामिका उक्तवती अहमेव धनिकतमा, तदर्थ अहमेव राजा. अन्ते कनिष्ठिका आगत्य किं वदति? मन्दम् उत्तिष्ठति. मन्दम् इति पदस्य विपरीतार्थशब्दः, विरोधार्थकशब्दः कः? वंशसुधा भगिनी वदतु. मन्दं विरुद्धार्थकशब्दः
उच्चै
मन्दं चलति,
शीघ्रं चलति.
उत्तमं. विरुद्धार्थकशब्दः शीघ्रं चलति. परन्तु अत्र कनिष्ठिका मन्दम् उत्तिष्ठति अपि च वदति. किं वदति? वदतु.
कनिष्ठिका वदति अहं क्षम्यतां, कनिष्ठिका मन्दम् उत्तिष्ठ अग्रे अग्रे आगच्छति. वदति अहम् अङ्गुष्ठः इव न बलिष्ठा, अहं तर्जनी इव तर्जयितुं न शक्नोमि, अहं मध्यमा इव न दीर्घा, अहं तु लघुतमा. अहम् अनामिका इव न धनिका, अङ्गुलीयकं न धारयामि, परन्तु जनाः यदा नमस्कारं कुर्वन्ति तदा अहमेव अग्रे भवामि. इदानीमेव महोदयानां श्रेष्ठानां मम एव प्रथमदर्शनं भवति इति. एतत् सर्वं श्रुत्वा धर्माधिकारी कनिष्ठका एव सर्वासाम् अङ्गुलीनां राजा भवितुम् अर्हति इति निर्णयं करोति.
उत्तमम्. इत्युक्ते साधारणतया यदि वयं श्रेष्ठानां दर्शनं कुर्मः चेत्, महोदयानां दर्शनं कुर्मः चेत्, प्रथमतया कनिष्ठिका एव अग्रे आगच्छति. अत्र किम् अस्ति इत्युक्ते, अत्र भवन्तः अवगच्छन्ति एव अत्र कथायाः नीतिः का इत्युक्ते, अत्र धर्माधिकारी कनिष्ठिका एव सर्वासाम् अङ्गुलीनां राजा भवितुम् अर्हति इति सः उक्तवान्, सः निर्णयं कृतवान्. इत्युक्ते अत्र कथायाः नीतिः का, किञ्चित् वदतु.
कनिष्ठा अस्ति चेत् अपि कनिष्ठा एव प्रथम अङ्गुल प्रथमं भवितुम् अर्हति. इतोपि अस्ति, सर्वे अपि एतत् एव कार्यं करोति. सर्वे अङ्गुलीनां कार्यं सम्यक् अस्ति, परन्तु किं वदामि,
भवती चिन्तयतु. अधुना गीताञ्जलि भगिनी भवती वदतु, कथायाः नीतिः का?
नीतिः इति प्रथम यदि जनाः नमस्कार कुर्वन्ति यदि तदा प्रथमं उङ्गली कनिष्ठका भवति.
उत्तमं.
तथा धर्माध्यक्षः कनिष्ठका राजा श्रेष्ठतमा भवति.
श्रेष्ठतमा भवति. उत्तमं पदं, श्रेष्ठतमा भवति. इत्युक्ते अत्र प्रत्येकम् अङ्गुल्याः प्रामुख्यता अस्ति एव, तथा एव लोके अपि प्रत्येकस्य पुरुषस्य अथवा व्यक्तेः व्यक्तित्वम् अथवा वैलक्षण्यम् अथवा वैशिष्ट्यम् अस्ति एव. इत्युक्ते प्रत्येकस्मिन् व्यक्तौ नैपुण्यम् अस्ति, तत्तु वयम् इत्युक्ते काचित् विलक्षणा अस्ति सर्वासां सर्वेषु अत्र वैलक्षण्यमस्ति, तत्तु अस्माभिः अवगन्तव्यं. वि नीड् टु रिकग्नैज़् दट् एव्रिबडि हेस् देर् ओन् स्पेशालिटि इन् दिस् वर्ल्ड्. अत्र एकः श्लोकः अस्ति, तस्य कृते अमन्त्रमक्षरं नास्ति, नास्ति मूलम् अनौषधम्, अयोग्यः पुरुषो नास्ति, योजकस्तत्र दुर्लभः. There is nobody in this world who is useless. But the only thing is, we need to know for what purpose that person is meant for. He is good at what? That is the most important thing in this world. There is nobody who is useless. Atra. Ichukte amantram aksharam nasti, nasti moolam anaushadham, ayogyah purusho nasti, yojakah tatra durlabhaha. Anantram, श्रेष्ठानां दर्शनं करणीयम् इति वदामः, परन्तु श्रेष्ठानां दर्शनं कुर्मः चेत् किं भवति?
प्रथमः श्रेष्ठः एव गच्छति दर्शनार्थं.
दर्शनेन किं प्रयोजनं? दर्शनेन किं प्रयोजनं?
दर्शनेन किं प्रयोजनम् इत्युक्ते मम संस्कृतभाषायाः
किमपि वदतु, प्रयत्नं करोतु.
महोदयाः दर्शनमेव मम मनःशान्तिः भवति, मनः शान्तिः भवति. तदनन्तरं बहूनि
अत्र गीताञ्जलि भगिनी भवती वदतु, भवती वदतु गीताञ्जलि भगिनी, किमर्थं श्रेष्ठानाम् अथवा महापुरुषाणां दर्शनं करणीयं, किमर्थं? तेन किं भवति, तेन किं प्रयोजनं भवति, तेन किं लभ्यते?
अहं उत्तमं विचार
उत्तमं विचारं कर्तुं
यदि अहं यदि अहं संस्कृत पठामि
उत्तमं विचारं कर्तुं संस्कृतं पठामि, उत्तमं. परन्तु अत्र प्रश्नः कः इत्युक्ते, किमर्थं श्रेष्ठानां दर्शनं करणीयम् इत्युक्ते, साधारणतया श्रेष्ठानां दर्शनं कुर्मः चेत् तत्र दर्शनस्य अनन्तरं किञ्चित् परिवर्तनम् आगच्छति. तत्र दर्शनात् पूर्वम् अपि च दर्शनात् दर्शनस्य अनन्तरं परिशीलनं कुर्मः चेत् तत्र परिवर्तनं भवति, अथवा श्रेष्ठानां दर्शनेन स्फूर्तिं प्राप्नुमः अथवा उत्तेजं प्राप्नुमः. इत्युक्ते वयं सर्वे दर्शनानन्तरं प्रेरिताः भवामः. अत्र प्रेरकः कः? श्रेष्ठः. वयं तु प्रेरिताः. तत्र तथा उत्तेजनं प्राप्य वयम् अस्माकं कार्याणि उत्तमरीत्या कर्तुं शक्नुमः. तदेव तत्र श्रेष्ठानां दर्शनेन लाभः. उत्तमं. वयं सर्वे अत्र अधुना स्थगयामः, अग्रिमे सप्ताहे मिलामः. धन्यवादः
भगिनी. एकः प्रश्नः अस्ति.